इयं आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका सुषमा कुमारी आदौ मुख्य वार्ताः प्रधानमन्त्री नरेन्द्र मोदी अकथयत् यत् भारत चीनयोर्मध्ये स्थायि शान्तिपूर्ण सम्बन्धः न केवलम् उभाभ्यां देशाभ्याम् अपि तु समग्र विश्वाय महत्वपूर्णमस्ति। भाजपेति दलस्य वरिष्ठ नेता प्रधानमन्त्री च नरेन्द्र मोदी प्रोक्तवान् यत् विगत दशवर्षेष् एनडीए संयुक्त दलेन अशेष राष्ट्राय सुदृढता प्रदत्ता। लोकसभा निर्वाचनानां तृतीय चरणाय अधिसूचना श्वः सम्प्रसारयिष्यते। जम्मू कश्मीरे पुलवामा जनपदे अद्य सुरक्षा बलै सह संजाते संघर्षे आतंकवादी एकः मृतो जातः। अशेष देशे अद्य ईद उल फित्र पारंपरिक रीत्या आमान्यते। अपि च आईपीएल इत्यस्यां क्रिकेट स्पर्धायां अद्य सायं मुम्बय्याः वानखेड़े क्रिकेट क्रीडांगणे मुम्बई इंडियंस दलं रॉयल चैलेंजर्स बेंगलुरु दलेन सह स्पर्धिष्यते। प्रधानमन्त्री नरेन्द्र मोदी सबलं प्रत्यपादयत् यत् भारत चीन देशयोः मध्ये विषम सम्बन्धान् दूरीकर्तुम् उभयोः देशयोः सीम प्रसंगानां तात्कालिक समाधानम् आवश्यकमस्ति। श्रीमोदी अकथयत् यत् भारत चीनयोर्मध्ये स्थायि शान्तिपूर्ण सम्बन्ध न केवलम् उभाभ्यां देशाभ्याम् अपि तु समग्र विश्वाय महत्वपूर्णमस्ति। एकस्मिन् साक्षात्कारे प्रधानमन्त्रिणा आशा प्रकटिता यत् राजनैतिक सैन्य स्तरयोः सकारात्मक रचनात्मक वार्तयोः माध्यमेन उभौ देशौ सीम्नि शान्ति स्थायित्वं च स्थापयितुं समर्थः भविष्यतः। श्रीमोदी भारतीय लोकतन्त्र विषयेऽपि उक्तवान् यत् मतदातृणां नैर्यन्तर्येण प्रवर्धमानं सहभागित्वं लोकतन्त्रं प्रति जनानां विश्वासस्य प्रमाणमस्ति। विश्वस्य बृहत्तमस्य लोकतन्त्रस्य रूपेण वर्षे 19-2000 सामान्य निर्वाचने 60 कोट्यधिक जनाः मतदानं कृतवन्तः। साम्प्रतं यावत् अस्य वर्षस्य सामान्य निर्वाचने देशस्य 97 कोट्यधिकाः मतदातारः स्वीय मताधिकारस्य उपयोगं करिष्यन्ति। एतदर्थम् आदेशे 10 लक्षाधिकानि मतदानकेन्द्राणि अपि निर्मीयन्ते। प्रधानमन्त्री श्रीनरेन्द्र मोदी राजस्थान राज्ये कैरोली क्षेत्रे जनसभाम् एकां सम्बोधयति। इतः प्राक् श्रीमोदिना ऋषिकेश उत्तराखण्डे अपि जनसभाः सम्बोधिताः। प्रोक्तं च यत् विगत दशवर्षेष् भारतीय जनतान्त्रिक संयुत्या अशेष राष्ट्रं सुदृढता प्रदत्ता। तेन एतदपि प्रोक्तं यत् यदा देशे निर्बल प्रशासनेन शासनं कृतं तदा आतंकिनां सशक्तता सुदृढा जाता। प्रधानमन्त्रिणा भणितं यत् तदीय प्रशासनेन वन रैंक वन पेंशन इति नामधेया योजना सैनिकेभ्यः प्रारब्धा। तेन प्रोक्तं यत् भारतीय जनता पार्टी इति दलेन स्वदेशे निर्मितं जीवन रक्षक बाहुवस्त्रमपि सैनिकेभ्यः प्रदत्तम्। श्रीमोदिना प्रतिपादितं यत् प्रशासनेन विभिन्नैः कार्यक्रमैः उत्तराखण्डस्य अर्थव्यवस्थाम् अपि सुदृढीकृता। लोकसभा निर्वाचनानां तृतीय चरणाय अधिसूचना श्वः सम्प्रसार्यते। चरणेऽस्मिन् 10 राज्यानां 2 केन्द्रशासित प्रदेशयोः 94 लोकसभा आसनानां कृते मे मासे 7 दिनांके मतदानं भविष्यति। मध्यप्रदेशस्य बेतुल निर्वाचनस्य अधिसूचना अपि श्वः एव प्रसारयिष्यति। अस्मिन् संसदीय निर्वाचन क्षेत्रे द्वितीय चरणे मतदानं भवितुम् इति निश्चितं। परं बहुजन समाजवादी पार्टीति दलस्य प्रत्याशिनः निर्धारणात् निर्वाचनात् प्रक्रिया स्थगिता जाता। चरणेऽस्मिन् 29 तारिकां यावत् नामांकनं प्रपूरयिष्यति। संस्कृतवार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसारयति। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.com इत्यत्र अथ च न्यूज ऑन एयर चलदूरभाषीयतन्त्रांशेऽपि उपलब्धो भविष्यति। जम्मू कश्मीरे पुलवामा जनपदे अद्य सुरक्षा बलै सह संजाते संघर्षे आतंकवादी एकः मृतो जातः। आरक्षिदलेन संसूचितं यत् सुरक्षा बलैः आतंकिनां उपस्थितिं प्राप्य राजपोरा क्षेत्रे फ्रास्सिपो ग्रामे अन्वीक्षणं प्रारब्धम्। आतंकिनां गोलिका प्रहाराणां सुरक्षाबलैः भद्रं प्रत्युत्तरं प्रदत्तम्। मृत आतंकिजनस्य अभिज्ञानं संजायते। आरक्षिजनेन विज्ञापितं यत् घटनास्थलात् बृहन्मात्रिक आयुध सामग्री अपि अधिगतास्ति। अशेष देशे अद्य ईद उल फित्र पारम्परिक रीत्या आमान्यते। जनैः ईदगाह मस्जिद तीर्थस्थलेषु नमाज प्रार्थिता। अवसरेऽस्मिन् द्रौपदी मुर्मू वर्यया देशवासिनः ईद उल फित्र जनजातीय समुदायस्य पर्व सरहुल इत्यस्यापि शुभकामनाः प्रसारिताः। श्रीमत्या मुर्मू वर्यया सामाजिक अन्तर्जालीय सन्देशे भणितं यत् ईद पर्व परस्पर हर्ष वितरण पर्व विद्यते। पर्व इदं एकता सद्भाव सौहार्द भावनां विवर्धयति। तया भणितं यत् सरहुल पर्व नववर्ष आगमनस्य प्रतीको विद्यते। प्रकृति प्रेम सम्मानस्य च सन्देशः प्रदीयते। एतेन सहैव उपराष्ट्रपतिना प्रधानमन्त्रिणा अपि देशवासिनः शुभासिताः। भारतीय जनता पार्टीति दलेन मिजोरम प्रदेशे जोराम मेडिकल कॉलेज इत्यस्मै क्षेत्रीय चिकित्सा विज्ञान संस्थानस्य स्थानं प्रदत्तम्। भारतीय जनता पार्टीति दलस्य वरिष्ठ नेत्रा मन्त्रिणा च डॉ एस जयशंकरेण लोकसभा निर्वाचनात् प्राक् मिजोरम प्रदेशाय दलस्य विवरणं सम्प्रसारयता भणितं यत् निर्वाचनमिदं न केवलं पञ्चवर्षाय वरन् आगामि पञ्चविंशति वर्षाणां देशस्य प्रगति यात्रां प्रशस्यते। गुजरातस्य पूर्व कांग्रेस नेता रोहन गुप्ता, पूर्व युव कांग्रेस नेता डॉ जहानजेब सिरवाल, भूतपूर्व आईएएस अधिकारी परमपाल कौर तस्य च पति गुरप्रीत सिंह मलूका च अद्य नवदिल्ल्यां भाजपेति दल मुख्यालये भाजपा दलस्य महासचिवस्य विनोद तावडे इत्येतस्य दलनेतु हरदीप पुर्य च उपस्थितौ भाजपा दले समाविष्टवन्तः। हरियाणाया महेन्द्रगढ़ जनपदे अद्य विद्यालयीय बसवाहनस्य अत्यधिक वर्तनेन अष्ट बाला मृता जाता, अनेके च व्रणिता जाता। दुर्घटनेयं उन्हानी ग्रामं निकषा घटिता। आरक्षि कथितवान् यत् बसचालक निगडित। हरियाणाया शिक्षामंत्री सीमा त्रिखा महेन्द्रगढ़ स्थितं चिकित्सालयं प्रति गतवती यत्र द्वादश बाला उपचाररता सन्ति। राष्ट्रपति द्रौपदी मुर्मू इमां बसयान दुर्घटनाम् अभिलक्ष्य स्वीय संवेदना प्रकटितवती। एकस्मिन् सामाजिक सन्देशे राष्ट्रपति अवोचत् यत् एतस्यां विद्यालयीय बसयान दुर्घटनायां निर्दोष बालानां मृत्युः हृदयविदारको विद्यते। प्रधानमन्त्री नरेन्द्र मोदी अद्य हरियाणाया महेन्द्रगढ़ जनपदे जातायां बसयान दुर्घटनायां मृत बालानां परिवारेभ्यः स्वीय संवेदना प्रकटितवान्। सामाजिक सन्देश पटले श्री मोदी व्रणित बालानां शीघ्रातिशीघ्रं स्वास्थ्याय कामना कृतवान्। असौ अग्रे अकथयत् यत् राज्य प्रशासनस्य सन्निधौ स्थानीय प्राशासनिक गणा प्रभावितेभ्यः बालेभ्यः सर्वसम्भव प्रयासान् विदधाति। भारत ऋतु विज्ञान विभागेन महाराष्ट्र मध्यप्रदेशयोः भागेभ्यः नारंग वारिणिकी संचेतना प्रख्यापिता। आगामिनं दिनत्रयं यावत् मध्यप्रदेश छत्तीसगढ़ मध्य महाराष्ट्राणां केषुचित् भागेषु 50 किलोमीटरात्मक वेगेन सह धूलि परिपूर्ण वायुना विद्युद्ध्वनिना सह मध्यवृष्टिः भविष्यति। विभागेन इदमपि प्रख्यापितं यत् अस्य मासस्य 13 दिनांकं यावत् पश्चिम बंगाल झारखंड ओडिशा बिहार अंडमान निकोबार क्षेत्रेष्वपि विद्युत् प्रकाशेन सह मध्यम वृष्ट्याः अनुमानो वर्तते। तत्रैव राजस्थान राज्ये एतादृशी स्थितिः 15 दिनांकं यावत् भविष्यति। ऋतु विभागेन पूर्वानुमानितं यत् जम्मू कश्मीर हिमाचल प्रदेश उत्तराखण्ड राज्येषु श्वः वृष्टिः हिमपातश्च भविष्यति। आईपीएल इत्यस्यां क्रिकेट स्पर्धायां अद्य सायं मुम्बय्याः वानखेडे क्रिकेट क्रीडांगणे मुम्बई इंडियंस दलं रॉयल चैलेंजर्स बेंगलुरु दलेन सह स्पर्धिष्यते। यस्याः प्रसारणं सायं 7:30 वादनतो भविष्यति। इति वार्ताः।